अस्तु भगिनी, द्वयमन्त्रं वदतु कृपया.
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्. संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्. आत्मानम् आहुतं मन्ये, वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च, पवित्रां संस्कृतिं तथा, संरक्ष्य ननु कुर्याम विश्वं शान्ति समन्वितम्. ॐ श्री गुरुभ्यो नमः. हरिः ॐ.
सुन्दरं भगिनि, बहु सुन्दरं, धन्यवादः. अस्तु, गतवर्गे वयं अस्त् अस् धातोः प्रयोगं पठितवन्तः. नमो नमः भगिनि. गोपिका भगिनि, स्वागतम्. सो अत्र पुनरेकवारं झटिति दृष्ट्वा अग्रे गच्छामः. सो अत्र अस्त् अस् धातुः अस्ति, वर्तमानकालः अस्ति, एकवचने सन्ति प्रथमपुरुषे, अस्ति सन्ति एकवचनं बहुवचनं, उत्तमपुरुषे अस्मि स्मः इति अस्ति, भूतकाले आसीत् आसन् प्रथमपुरुषे एकवचनं बहुवचनं, उत्तमपुरुषे आसम् आस्म, भविष्यत्काले कथं भवति, भविष्यति भविष्यन् भविष्यन्ति प्रथमपुरुषे, भविष्यति भविष्यन्ति, भविष्यामि भविष्यामः, तथा एव भवति. अस् धातु उपयुज्य वयं कथं वाक्यानि कुर्मः इति एकवारं दृष्टवन्तः वयं. सो अत्र साक्षात् उपयुज्य एकाकी एक बृहत् करोमि एकवारम्. सो अत्र साक्षात् एकाकी एव अस्ति. अत्र गोपाल कुत्र आसीत् इति भूतकालरूपं, परन्तु कुर्वन् इति उपयुज्य अपि वयं वक्तुं शक्नुमः, दूरवाणीं कुर्वन् आसम् इति, अपि च उक्तवान् आसीत्, आगतवान् अस्ति, आगच्छन् आसम् इत्यादीनि प्रयोग.
ज्योति अस्मि.
स्वागतं भगिनि, स्वागतम्. एतानि प्रयोगरूपाणि अपि वयं पठितवन्तः. प्रश्नाः सन्ति वा अत्र? अस्तु, न इति मन्ये वयम् अभ्यासदर्शिनीं प्रति गच्छामः. अस्तु, अभ्यासः एवम् इति अहं चिन्तयामि. इदानीम् अहं वृद्धः अस्मि, बाल्यकाले अहं कार्यशीलः आसम्, अध्ययनशीलः आसम्, सर्वत्र आसम् आसम् एव. वदतु महोदय.
वयं कृतवन्तः, वी आर् आलरेडी गान् टु तः पर्यन्तम्.
ओ एवं वा, सारी. तः क्षम्यतां महोदय, तः पर्यन्तं पठितवन्तः वा वयम् एतत् सर्वं? Have you gone to this one or no?
No. Visheshaha is what we should do.
Okay, dhanyavada mahodaya. I should ask you first.
I have the book, so I put dates and time.
Oh, dhanyavada. Uttama. Okay. Because this is an online thing, I do not date it. Okay, astu. Astu. So, atra visheshaha asti taha pariyantam. So, etat vayam seema iti padama. Seema iti ikte fence. Seema iti padama vayam. Avadi suchanartam. Avadim iti ikte period. Avadim. अवधिं सूचनार्थम् एतस्य प्रयोगः भवति तः पर्यन्तम् सो कस्य अवधिं सूचयति कालं सूचयति अथवा दीर्घ्यम् इत्युक्ते लेन्त् इति वदामः खलु तत् सूचयति विस्तारः इत्युक्ते स्पेस् तदपि सूचयति अवधिं सूचयति अस्तु उदाहरणार्थम् एकतः एकवादनतः द्विवादनपर्यन्तं मम विरामः सो अत्र अत्र कालं सूचयति टैम् कालं सूचयति कन्याकुमारीतः हिमालयपर्यन्तं भारतम् इति विस्तारः विस्तारः इत्युक्ते स्पेस् नो लैक् एक्स्पेन्स् तत् सूचयति इति कुत्र उपयोगं कर्तुं शक्नुमः वयम् अन्यस्य वचनं यदा उद्ध्रियते उद्ध्रियते मीन्स् रिपीट् पुनः वदामः चेत् तदा अन्ते अन्ते पूर्वं न अन्ते इति शब्दस्य प्रयोगः भवति इति शब्दात् पूर्वं वक्तुः वचनं यथावत् इत्युक्ते यथावत् इत्युक्ते Exactly. Sakshat. Sakshat uchyate. Uchyate means it is said. Astu. Iti atra shabdat iti panchami vibhakti rupam. Purvam param iti prayogah asti che tatra panchami vibhakti rupam bhavati. Shabdat purvam. Shabdat param. Parantu anantaram iti पदमस्ति चेत् तत्र षष्टिविभक्तिरूपं भवति अस्तु
भगिनी एकः प्रश्नः
वदतु
यथावत् इत्युक्ते आर्डिनरी एस् यूशुवल् न वा
एक्साक्ट्लि इति अर्थं यथा सः उक्तवान् तथा इति वयं वदामः खलु पुत्रवत् नो जनकवत् पिता इति वत् इति प्रयोगः यत्र भवति तथा एव इति इति अर्थ अन्यपदं वदामि वयं पर्याप्तं न परम् अपि च अनन्तरम् अपि च परं समान अर्थकपदम् सो अत्र वयं वदामः वत् इति परं वत् एव अनन्तरम् अपि इति
भगिनि मातावत् पुत्री
मातावत् पुत्री पितावत् पुत्रः इति
एकस्मिन् समये फार् सम् पाकशाला सन्ति भवती भवत्या उक्तं यथावत् इत्युक्ते सम् वर्ड् लैक् वत् वत् अन्ते भवति एस् यूश्वल् इति अर्थे तत् किं भगिनि
एस् यूश्वल् इति अहं न जानामि यथावत् इत्युक्ते यथा सः उक्तवान् तथा इति इति अर्थ
ओ अस्तु अस्तु भगिनि अवगतम्
लैक् पितावत् दैर्घ्यं मीन्स् लेन्त् दीर्घम् इति खलु दीर्घं बिकेम् दैर्घ्यं
विस्तारः आल्सो इस् लेन्त् ओन्ली न कन्याकुमारी हिमालय इस् अगेन् विस्तारम् इस् आल्सो लेन्त् ओन्ली द
या विस्तारम् इस् द इस् द एक्स्पेन्स् यु नो इट्स् नाट् जस्ट् या इस् द एक्स्पेन्स् स्पेस् इस् मोर् स्पेस्
Bhagini, any specific reason why iti has been included with taha and paryantam in this chapter?
I don't see a reason, no, Bhagini.
Okay, because I found taha was included in the 10th chapter also when we did kati, kutaha, katham, and then we also did taha. So I was wondering whether when we form sentences, these things normally come together. Is that the reason, or you know?
I don't see a reason, Bhagini, actually, no.
Okay, okay. Yeah. Dhanyavad, Bhagini.
Ah, Dhanyavad.
Bhagini, kshamyatam.
Ah.
Yatavat aham patami. How I usually do aham patami. Iti arte agatam shaknoti va?
Ek nimish. Tat prayogaha aham na janami bhagini. Agre vadami. Yatavat. Api, yeah. यथावत् तत्रापि भवितुम् अर्हति.
ओ अस्तु स्पष्टीकरणार्थं धन्यवादः.
अस्तु अस्तु. परन्तु अत्र यथा सः उक्तवान् तथा इति अर्थे एव भवति. अत्र पश्यतु, अन्यस्य वचनं यदा उद्ध्रियते मीन्स् रिपीटेड् तदा अन्ते एव भवति इति शब्दात् पूर्वं वक्तुः वचनम्. ओके, हूएवर् वक्तुः इस् द पर्सन् हू सेड्. यः वदति सः वक्तुः. वक्तुः दट् बिकम्स् षष्ठी विभक्ति. वक्तुः वचनं यथावत् उच्यते. यथावत् इस् एक्साक्ट्लि अत्र एक्साक्ट्लि. सो अस्तु. सो अत्र इट् मीन्स् एक्साक्ट्लि. सो समटैम्स् द सेम् वर्ड् हेस् डिफ्रेण्ट् मीनिङ्ग्स् खलु. सन्दर्भानुसारमेव वयम् अर्थं ज्ञातुं शक्नुमः वयं.
सत्यं भगिनि, लैक् यावत्
यावत् अहं गच्छामि तावत् इति अर्थे. सत्यम्.
धन्यवादः.
धन्यवादः. अस्तु, अत्र
सोरि,
न चिन्ता मास्तु. वदतु.
इन् दट् सेण्टेन्स् इन् द बिगिनिङ्ग् भगिनी इट् सेस् एतेन सूच्यन्ते. वेन् वुड् बि यूस् सूच्यन्ति एण्ड् वेन् वुड् बि यूस् सूच्यन्ते भगिनी?
अस्तु. सो अत्र दे आर् यूसिङ्ग् द कर्मणि प्रयोग भगिनी. सो दे आर् यूसिङ्ग् द पेसिव् वाय्स्.
Passive, okay.
When you use a passive voice, it becomes ente, patyate, like that. Te, it becomes like that. Like,
okay. Suchyanti would be used in the active voice. Okay.
Suchyanti.
Dhanyavada, Bhagini.
Chintam. So, atra udaharanam asti, saha uktavan. So, within quotes. So, ataha, यथावत् वयं वक्तव्यं. मम अन्यत् कार्यम् अस्ति इति. सो अत्र इति अन्ते एव लेखनीयं, न तु पूर्वं. परन्तु मम अन्यत् कार्यम् अस्ति इति सः उक्तवान्, तत् भवितुम् अर्हति. परन्तु इति पूर्वं न आगच्छति. अवगच्छन्ति खलु? अस्तु. सो एतत् अभ्यासः बहु सुलभ अभ्यासः एव. अर्जुनविषादयोगः एतत् न, अग्रिमं बहु सुलभः. सो अत्र वयं पूर्णप्रत्ययम् उपयोगं कर्तुम् अवकाशः अत्र. उदाहरणार्थम् अर्जुनविषादयोगः प्रथमपुटतः दशमपुटपर्यन्तम् अस्ति, अथवा प्रथमपुटतः दशमपुटपर्यन्तम् अर्जुनविषादयोगाध्यायः अस्ति इति लेखनीयम्. अवगच्छन्ति वा? उपरि निर्दिष्टायाः अनुक्रमणि, सो अनुक्रमणिका बृहत् करोमि. सो अत्र अनुक्रमणिका इत्युक्ते इण्डेक्स्. अनुक्रमणिकायाः आधारेण कः अध्यायः कुतः कियत् पर्यन्तम् अस्ति इति निर्दिशत. कुतः कियत् पर्यन्तम्, कियत् पर्यन्तम् अस्ति इति निर्दिशत. सो अत्र वन् इति एकम् इति अस्ति. अत्र अर्जुनविषादयोगः प्रथमपुटतः दशमपुटपर्यन्तम् अस्ति, अथवा प्रथमपुटपरितः दशमपुटपर्यन्तम् अर्जुनविषादयोगः अस्ति. अस्तु वा? आरम्भं कुर्मः वा वयम्? We can say puta sankhya also.
What is the puta means? Page or what is it? Sankhya is number, I know. What is puta means exactly then?
Page.
Okay, it is from first page to page 10. Okay. Now, sankhya can be ignored. That's what they are saying.
Yeah, correct.
Perhaps it is, page 1 to page 10 versus page number 1 to page number 10.
Correct. Sharada Bhagini, bhavati karoti va? Dvitiyam karoti va?
Aam Bhagini.
Sankhya Yoga.
Dashama putataha. Panchadasha. पञ्चदशपुटपर्यन्तं साङ्ख्ययोगाद् अध्यायः अस्ति.
साङ्ख्ययोगाध्यायः अस्ति. अस्तु, उत्तमम्. अस्तु, सो अत्र अवधेयं स्मरन्तु, विंशति आरभ्य तम आगच्छति. अस्तु अस्तु. अम्ब अस्ति वा? अम्ब नास्ति इति मन्ये. केतकि भगिनि?
आं भगिनि. पञ्चदश पुटपर्यन्तं पुटतः वट् इस् ए 19 नवदश पर्यन्तं
पुटपर्यन्तं
ज्ञानयोगः अस्ति,
कर्मयोगः अस्ति, कर्मयोगाध्यायः अस्ति अथवा कर्मयोगः अस्ति. अस्तु,
कर्मयोगः अस्ति.
अस्तु, सागरी भगिनि.
आं भगिनि. नवदशपुटतः द्वाविंशतितमपुटपर्यन्तं ज्ञानयोग योगाध्यायः अस्ति.
उत्तमं. ज्ञानयोगाध्यायः अस्ति, उत्तमम्. अस्तु, सन्ध्या भगिनि.
हौ डस् इट् कम् हियर्?
सो द्वाविंशतितमपुटपर्यन्तं, सो आफ्टर् द विंशति यु पुट् द तम. Sandhya Bhagini.
Bhagini, all numbers after 20, right?
Only if it is a Purna Pratyaya, like 21st, like that. Not just Vimshati, Pancha Vimshati, like that, no. If it is a Purna Pratyaya, you have to put the Tama.
Thank you,
Bhagini. Swagatam. द्वाविंशतित अष्टमपुटतः षट्विंशतितमपर्यन्तं
तमपुटपर्यन्तं
कर्मसंन्यासयोगः अस्ति.
अस्तु. सो अत्र षट् इति वक्तुं शक्नुमः, षड् अपि अस्ति खलु. सो अत्र वयं कथं जानीमः कुत्र षट् कुत्र षड् इति? सो षट् इति एवम् अस्ति, षट् अनन्तरं किम् अस्ति इति द्रष्टव्यं वयं. सो अत्र व्यञ्जनम् अस्ति चेत् वि हाव् द कर्कषव्यञ्जन क ख आर् कर्कषव्यञ्जन क ख ख अण्ड् देन् ग घ आर् मृदु व्यञ्जनम्. ओके, सो षट् अनन्तरं कर्कष प फ च छ एतानि आगच्छति चेत् षट् एव तथा एव तिष्ठति. परन्तु मृदुव्यञ्जनम् अपि च स्वराः अपि च शशसः यारलव एतानि अक्षराणि आगच्छति चेत् षड् भवति. सो अत्र षड् षड्विंशति इति उच्चारणीयम्. उच्चारणीयम्
अस्तु भगिनि. षड्विंशति
षड्
भगिनि षट् कति व्यञ्जनानि आगच्छति चेत् षट् भवति?
सो षट् इति अक्षरस्य अनन्तरं कर्कषव्यञ्जनम् इति वदामः. ख च त त प मम लेखनी न लिखति. सो ख च त प इति एतानि व्यञ्जनानि आगच्छति चेत् षट् एव तिष्ठति, नो चेत् षट् भवति.
धन्यवादः.
Bhagini, may I please repeat it once so that I know that I've understood it right? Dvavimshati tama putataha shad vimshati tama putaparyantam karma sanyasa yoga asti.
Uttamam Bhagini.
Is it okay?
Dhanyavada. Agre. सविता भगिनि. सविता भगिनि अस्ति वा?
आं भगिनि अस्मि अहम्.
आम् आम्
षट् षट्विंशति पुटपर्यन्त षट्विंशतिपुटपर्यन्तं.
सो यु हाव् टु एड् द तम
तम षट्विंशतितम पुटपर्यन्तं
पुटतः
पुटतः एको एकत्रिंशत् इस् इट् करेक्ट् भगिनि?
करेक्ट् करेक्ट् एकत्रिंशत्तम
एकत्रिंशत्तमपुटपर्यन्तम् आत्मसंयोगः आत्मसंयोगः
अध्यायः अध्यायः
अध्यायः अस्ति आत्मसंयोगः अध्यायः अस्ति.
Bhagini, is it okay to say those two words separately and not together?
It is okay if you take a break. Viramaha asti chet vaktum shaktumaha. Atma sanyogaha adhyayaha asti. Atava atma sanyoga adhyayaha asti. Viramaha asti chet pritak vaktum shaktumaha nischeyana. अस्तु. अग्रे श्रीनिवासमहोदय.
आं भगिनि सेवेन् रैट् एकत्रिंशत्तम पुटतः षट् त्रिंशत्तम पुटतः ज्ञानविज्ञानयोगः अस्ति.
सो एकमेव महोदय, अत्र तः अत्र पर्यन्तं पुनः वदतु.
The words are becoming very long actually. एकत्रिंशत् तम पुटतः षट् त्रिंशत् तम पुटपर्यन्तं ज्ञान विज्ञान योगः अध्यायः अस्ति.
उत्तम, सम्यक्, अस्तु. उमा भगिनी,
भगिनी, हियर् इट् वुड् बि षट्, इस् इट्?
भगिनी, करेक्ट्, षट्. ही सेड् इट् करेक्ट्लि, षट्.
धन्यवादः.
आं भगिनि.
उमा भगिनी,
षट् त्रिंशत् तम पुटतः नवत्रिंशत् तम पुटपर्यन्तम् अक्षरब्रह्मयोगध्याय अस्ति.
Yoga, if you're going to split, you have to say Yogaha Adhyayaha Asti.
Yogaha Adhyayaha Asti.
Atava Yoga Adhyayaha Asti. Asti.
Dhanyavada.
Dhanyavada Bhagini. Agre Parameshwar Mahodaya. Parameshwar Mahodaya. म्यूट् मध्ये अस्ति वा? अस्तु, गोपिका भगिनी.
आं भगिनि, नवत्रिंशत्तमपुटतः नवत्रिंशत्तमपर्यन्तं राजविद्यायोगाध्यायः अस्ति.
पुनः वदतु भगिनि, नवत्रिंशत्तम
नवत्रिंशत्तमपुटतः नवत्रिंशत्
एतत् एतत् वदतु, अत्रतः अत्र पर्यन्तं खलु?
एकनिमिषं भगिनि, कुत्र?
फ्रम् पेज् 39 to 43 खलु?
आम्,
नवत्रिंशत्तमपुटतः त्रिचत्वारिंशत्
एकदोषः अस्ति.
आमां, चिन्ता मास्तु.
नवत्रिंशत्तमपुटतः त्रिचत्वारिंशत्तमपर्यन्तं त्रिचत्वारिंशत्तमपुटपर्यन्तं राजविद्यायोगाध्यायः अस्ति.
उत्तमं, राजविद्यायोगाध्यायः अस्ति, उत्तमं.
क्षम्यतां भगिनि.
चिन्ता मास्तु भगिनि, चिन्ता मास्तु.
अहं लिखितवती अत्र, क्लम्सि.
आमामां, तत् भवति भगिनि, चिन्ता मास्तु. ज्योति भगिनि, अग्रे.
वन् स्माल् क्वश्चन्, वेन् वि रैट् इट् विच् इस् त्रिचत्वारिंशत् तम, when we combine it, there is a ta with a halanta followed by a full ta, tama. What is the right way? I mean, do we combine it and write it, or do we write it separately, Bhagini?
Astu, so I aham likami atra tri chatva rim shat tama. त्रिचत्वारिंशत् तम पुट. सो दिस् इस् हौ ऐ रैट् तम.
ओके ओके, द लैन् आन् टाप् आफ् द त. ओके ओके ओके, गाट् इट् भगिनि, धन्यवादः.
अस्तु
भगिनि, त्रिचत्वारिंशत् तम पुटतः षट् चत्वारिंशत् पुट चत्वारिंशत्तमपुटपर्यन्तं विभूतियोगाध्यायः अस्ति.
उत्तम उत्तम. अन्य कोऽपि अस्ति वा यस्य नाम अहं न आहूतवती?
मालति.
मालति भगिनी वदतु. सो वि विल् जस्ट् रैट् सम्थिङ्ग् 46 खलु. सो 49 इति लिखामि. अस्तु भगिनि वदतु.
नवचत्वारित्रिंशत् पुटतः
न न फ्रम् सारि भगिनि फ्रम् हियर् टु हियर् अत्र.
ओके. षट्चत्वारि
सम्यक्
षट्चत्वारित्रिंशत् पुटतः
यु हाव् टु आड् द
तमपुटतः
पुनः पुनः आरम्भं करोतु भगिनि.
षट् चत्वारि त्रिंशत् तमपुटतः नवचत्वारि चत्वारि पुटपर्यन्तं विश्वरूपदर्शनं अस्ति. विश्वरूपदर्शनाध्यायम् अस्ति.
विश्वरूपदर्शन दर्शनं
दर्शनम् अस्ति.
अध्यायः
विश्वरूपदर्शनमध्याय अस्ति.
सो अथवा विश्वरूपदर्शनाध्यायः अस्ति.
ओहो, दर्शनाध्याय अस्ति.
अध्यायः अस्ति. सो अत्र षट् चत्वारिंशत्तमपुटतः तमपुटतः नवचत्वारिंशत्तमपुटपर्यन्तं
विश्वरूपदर्शनम् अस्ति.
सत्यम्. अस्तु, प्रश्नः अस्ति वा अत्र पूर्णप्रत्ययरूप विषये? नास्ति इति मन्ये. अस्तु.
It was a major tongue twister, Bhagini.
Bahu sundaram asti kalo.
Absolutely.
Adya kaha, dinan kaha.
Bhagini, the sentence level, what are they trying to say? Just go up in the right side only.
Right side, okay.
The level, they are putting something else. I'm not able to understand this. What are they saying?
Here, va. The last one? Agrima Adhyaya Pariyanta, up to the next chapter.
Means then what do we write then?
So, Agrima Adhyaya Pariyanta.
Tama Putataha, Agrima Adhyaya Pariyantam, this what you call Vishwabhadarshanam Asti.
Vishwabhadarshanam Asti, Satyam. Yeah. अस्तु अस्तु, अग्रिम अभ्यासः अस्ति. कुतः एतानि वाक्यानि आगच्छति इति. तैत्रीय उपनिषत् वदति, किं वदति? सत्यं वद, धर्मं चर इति. सो अत्र वाक्यम् एवम् अस्ति. उपरि काश्चन सूक्तयः निर्दिष्टाः सन्ति. कां सूक्तिं कः का वदति इति लिखत. सूक्ति इति स्त्रीलिङ्गपदम्, अतः कां सूक्तिः सूक्तिं सूक्तयः. उदाहरणार्थं हरिः हरी हरयः, मतिः मतिः मतीतयः. सो अत्र मतयः बहुवचनरूपम् अस्ति. सो अत्र काश्चन इति अस्ति. काः इति उदाहरणार्थं चित्चन वयं पूर्वं पठितवन्तः वा चित् चन विषये न वा आं वा
भगिनि लाङ्ग् बेक्
ओके सो अत्र
उक्तवती
ओके सो अत्र एकः प्रश्नः अस्ति प्रथमम् एकं वाक्यं वदामि बालकः गच्छति प्रश्नः उदयति कः बालकः गच्छति अहं वदामि कश्चन बालकः इत्युक्ते सं बालकः सो अत्र प्रश्नं प्रथमं वयं पृष्टव्यं सो अत्र सूक्तयः इति अस्ति सूक्तयः इति स्त्रीलिङ्ग बहुवचनरूपं रैट् स्त्रीलिङ्ग बहुवचनरूपं सो अत्र प्रश्नः उदय
भगिनी अर्थं किं सूक्तिः
सूक्तिः इत्युक्ते लघुरूपेण बृहत् अर्थं वदति सत्यं वद धर्मं चर इति
like
what
aphorism
aphorism yeah something like that aphorism
sutram and shukti same with different gender
sutram is also very similar concept mahodaya that sutram also they have very short sentences but it has so much meaning to it like when we say satyam vada dharmam chara I mean we can live our whole life with this concept we have to speak the truth so in the last thing I you know we saw one subhashitam it said how to speak satyam you have to speak satyam but don't speak in a harsh way you have to say the same satyam in a gentle way evameva because it is gentle don't speak untruth you have to speak the whole truth when we say ritam you have to speak the whole truth but still you have to speak it in a gentle way so that is satyam vada so there is so much depth into all these way so like that
more cut it even finer on this satyam vada I don't know, so majority will be able to understand Tamil, I believe in this. What is the difference between Vaimai and Unmai?
Yeah, please go ahead and tell me.
Vaimai is the truth that you speak in the mouth. Unmai is what comes from inside.
Oh, I see. Oh, Vai. Oh, I see. Vaimai and Unmai. Oh, I see. Okay. Now I get it. Okay. And when we say satyam we also have the whole truth that is ritam when we say ritam it's like you know what has to be done ritam like when we say ritam vada where is that I forget that what we say okay when I remember I'll tell you that they talk about ritam so ritam is part of satyam so there is so much depth into it so that is what sukti here
ritam badami will come
yeah in one stroke I forget tanno
mitrastam varnah
tanno mitrastam varnah
satyam vada dharmam chara
so in that shanno mitrastam varnah something okay now I don't remember exact word so we have it like that so that's what all these wonderful sutis are so atra they are saying how to say it satyam vada dharmam chara iti taitriya upanishad combine taitriyopanishad vadati athava taitriyopanishad vadati and then you put a dash satyam vada dharmam chara iti so the iti anantaram eva agacchati okay astu अस्तु शारदा भगिनि
आं भगिनि
आ
ईशावास्यं दं सर्वम् इति ईशावास्योपनिषत् वदति
ईशावास्योपनिषत् वदति अथवा
ईशावास्योपनिषत् वदति ईशावास्यमिदं सर्वम्
ईशा इति उत्तमं धन् अस्तु अम्बा अस्ति वा न इति मन्ये अस्तु केतकि भगिनि अग्रिम
विद्यया विन्दते अमृतम् एनोपनिषत् वदति विद्यया विन्दते अमृतम् इति
सो अत्र अ इति अस्ति परन्तु वयम् अ इति न उच्चारयामः अत्र
यस् विन्दते अमृतम्
No, we don't say a bhagini. We do not say.
Vindate mrutam.
Vindate mrutam.
Vindate mrutam.
Asu. Sagari bhagini.
Sam bhagini. Satyameva jayate iti mundakopanishad vadati. Mundakopanishad vadati satyameva jayate iti.
अस्तु सन्ध्या भगिनि
उत्तिष्ठत जाग्रत इति कठोपनिषद् वदति कठोपनिषद् वदति उत्तिष्ठत जाग्रत इति
सत्यं
भगिनि ऐ थिङ्क् द फ्रेस् दट् यु वर् लुकिङ्ग् फार् तन्नो मित्र संवर्णः सत्यं वदिष्यामि घृतं वदिष्यामि
घृतं वदिष्यामि धन्यवादः भगिनि या सी दट् इस् सो इम्पार्टेण्ट् सत्यं वदिष्यामि घृतम् आल्सो वदिष्यामि ब्यूटिफुल्
वेरि ब्यूटिफुल्
ब्यूटिफुल् धन्यवादः भगिनि नौ ऐ फील्
Bhagini, that Shubhashitam which you did, you tell the truth but you say it kindly. Otherwise, do we keep quiet if you are not able to say it kindly? Was that the meaning? I was a little confused about it.
No, you have to say it. You have to say it.
But you have to find a nice way to say it.
Nicer way to say it, yeah. For example, if somebody is wearing something that makes them look really bad, you don't say, oh God, take it off. You just say, try the other one. Maybe that suits you better. Something in a gentle way, but stop them from going out with that.
Priyam Bruyat, Bhagini.
Punaha Vartu Bhagini.
Priyam Bruyat. Satyam Bruyat, Priyam Bruyat.
And there is another, and this point is said in so many places, like, yes, Chandaso, Mishabo, Vidhyarupa, that they say, Jihva me madhumattama, you know.
Right. Yeah, so important. Yeah.
So you have to say whatever it is in a nice way. That is the thing, you know. And it brings out your own maturity, you know, your own growth. When you do that.
Bhagini, if I may say so, you are a shining example of that.
Oh, so many
mistakes and you're so nice about it. Thank you.
Bhagini, that's because I make so many mistakes too. So, so I understand. That's fine, Bhagini. No problem.
Thank you so much.
Asto. Savita, Bhagini?
आं भगिनि उत्तिष्ठत जाग्रतः इति कठोपनिषत्
वदति
उत्तिष्ठत जाग्रत इति कठोपनिषत् कठोपनिषत् वदति कठोपनिषत् वदति उत्तिष्ठत जाग्रतः इति
जाग्रत इति अस्तु
इति
अस्तु अग्रे श्रीनिवास महोदय
आं भगिनि कर्मण्येवा अधिकारस्ते इति भगवद्गीता वदति. भगवद्गीता वदति कर्मण्येवाधिकारस्ते
इति. उत्तमं, धन्यवादः. उमा भगिनि.
आं भगिनि, यतो धर्मस्ततो जयः इति महाभारतं वदति. महाभारतं वदति यतो धर्मस्ततो जयः इति.
सत्यम्, उत्तमं. परमेश्वर महोदय अस्ति वा? किम् अभवत्? अस्तु, गोपिका भगिनि.
Bhagini has posted that he is having some internet problems.
Oh, evam va. Astu. I didn't look at the chat. Dhanyavada Bhagini.
Aham vadami.
Vadata amba. Vadata.
Sarvam atmavimsham sukham iti chanakya nitihi vadati. Chanakya nitihi vadati sarvam atmavimsham sukham iti.
Uttama. सर्वात्मवशं सुखम् इति. उत्तमम्, उत्तमम् अम्ब. अग्रिम अपि करोतु.
एति जीवनन्तम् अनन्तम् इति रामायणं वदति. रामायणं वदति एति जीवन्तम् आनन्तः इति.
उत्तमं, धन्यवादः. गोपिका भगिनि. एति इत्युक्ते एतत् इति. एति ओर् इट् कुड् बि जीवन्तम् आनन्दः. लैक् इट् इस् सेयिङ्ग् दिस्
दिस् जीवन्तं
जीवन्तम् आनन्दः भवतु इति.
Because we've seen yesaha, yetat, all these things, so the yeti is something we have not seen before, so suddenly it has stuck.
Satya. Astu, agre Gopika Bhagini. Astu. Jyoti Bhagini, Tarhi.
Aam Bhagini. भावेहि विद्यते देवः इति विक्रमाकचरितं वदति. विक्रमाकचरितं वदति भावेहि विद्यते देवः इति.
मालति भगिनि.
गुडाः पूजस्थानम् इति भवभूतिः वदति. भवभूतिः
सर्वे म्यूट् मध्ये गच्छन्तु कृपया. एकवारं पठतु, अहं सर्वान्.
भावेः विद्यते देवः इति विक्रमार्कचरितं वदति. विक्रमार्कचरितम् इति भावेः विद्यते देवः. विक्रमार्कचरितं वदति भावेः विद्यते देवः
इति. सो द इति हेस् टु गो आफ्टर् दट्. एकवारम् अहं सर्वाणि म्यूट् करोमि, भवती अन्म्यूट् करोतु. अस्तु भगिनि.
विद्यते इत्युक्ते अस्ति वा?
अस्ति, विद्यते, अस्ति.
भावे इत्युक्ते किं भगिनि? भावेः भावम्.
उत्तम, उत्तमप्रश्नः. भावः इत्युक्ते लैक् हौ वि इमेजिन् इति अपि अर्थः अस्ति. सो यथा अहं चिन्तयामि मम देवः विष्णुः इति, विष्णुवत् अहं पश्यामि.
ओके ओके, ब्यूटिफुल्.
यथा अहं भावयामि तथा देवः अस्ति इति
विद्यते. अस्तु भगिनी, धन्यवादः.
धन्यवादः. प्रश्नार्थम् अपि धन्यवादः भगिनि. अस्तु अस्तु, अन्तिमं मालति भगिनि. गुणाः
ऐ टोल्ड् भावेः.
लास्ट् वन् भवति,
लास्ट् वन् गुणाः पूजस्थानम् इति भावभूतिः वदति.
भवभूतिः
भव सारि भवभूतिः वदति. भवभूतिः इति वदति गुणाः पूजस्थानम्.
सो अत्र इति कम्स् आफ्टर् द कोट्स् भगिनि, पुनः
आफ्टर् द कोट्स्. ओके, भवभूतिः वदति गुणाः पूजस्थानम् इति.
उत्तमम्. सो अत्र गुणाः पूजस्थानम्,
गुणाः पूजस्थानम्,
पूजस्थानम् इत्युक्ते गुणान् वयं पूजनीयम् इति.
गुणाः पूजस्थानम्. ओके,
अस्तु.
ब्यूटिफुल् कोट्स् वि हव् टु
रिमेम्बर्. ब्यूटिफुल् कोट्स् खलु. अस्तु, सो अत्र प्रश्नः अस्ति वा, विद्यया विन्दते अमृतम्. विद्यया, सो अत्र विद्यायाः महत्त्वम् अस्ति. अत्र विद्यया कर्मण्येवाधिकारस्ते, कर्मणि एव अधिकारः ते, भवतः अधिकारः भवतः एक्षन्स् एव, कर्मणि एव भवान् अधिकार भवतः अधिकारः अस्ति इति. यतो धर्म तथा जयः, धर्मं करोति चेत् ततः जयं भवति. जयं भवति इत्युक्ते मनसि जयं भवति. सर्वात्मवशं सुखम्. अस्तु, अग्रे गच्छामः. अस्तु, अग्रिमम् अभ्यास अध्यायम् अस्ति च अपि एव. च इति वयं जानीमः खलु, च इति आवलिः अथवा समुच्चयः इति वदामः, इत्युक्ते कलेक्षन् राशिः इति. कलेक्षन् अस्ति चेत् अन्ते एव च आगच्छति, मध्ये न आगच्छति. आङ्ग्लभाषायां राम सीता एण्ड् लक्ष्मण इति, सो एण्ड् इति मध्ये आगच्छति, परन्तु संस्कृते अन्ते एव आगच्छति. अपि एव इति अस्ति चेत् कुत्र अपि अस्ति इति दृष्ट्वा एव वयम् अर्थं ज्ञातुं शक्नुमः. सो उदाहरणार्थं रामः अपि गच्छति इत्युक्ते पूर्वम् अन्य कोऽपि गच्छति, अनन्तरं रामः अपि गच्छति इत्युक्ते अन्य कोऽपि अपि गच्छति. रामः एव गच्छति इत्युक्ते अन्य कोऽपि न गच्छति इति. सो एतदेव इन्ट्रडक्षन्. प्रश्नः अस्ति वा अत्र? अस्तु, एकमेकं पठामः वा? अस्तु, शारदा भगिनि.
आं भगिनि. आचार्यः, श्वस्तनस्य वार्षिकोत्सवस्य निमित्तं सर्वविद्यसन्नाहाः अपि कृताः, ननु विजय भवान् वदतु कः कः किं किं कार्यं करोति इति.
अस्तु, सो अत्र श्वस्तनस्य वार्षिकोत्सवस्य बहु सुन्दरमस्ति. अत्र पश्यतु, वार्षिकोत्सव इत्युक्ते किं, वार्षिक उत्सवस्य. वार्षिक इत्युक्ते एन्युवल्, वर्षः वर्षम् इति इयर्. वार्षिक इत्युक्ते एन्युवल्, वार्षिक उत्सव, वार्षिक उत्सव, वार्षिकोत्सव, उत्सवस्य वार्षिकोत्सवस्य, दट् मीन्स् एन्युवल् सेलिब्रेशन्स्. श्वस्तन वार्षिकोत्सव, श्वस्तनस्य वार्षिकोत्सवस्य विशेषणविशेषभावः अस्ति अत्र. श्वस्तनस्य वार्षिकोत्सवस्य निमित्तं, निमित्तम् अपि च षष्टि योजयामः चेत् तत्र किं सूचयति? चतुर्थी विभक्ति सूचयति. हलो अत्र निमित्तम् अथवा कृते अथवा कारणम् वार्षिकोत्सवस्य कृते वार्षिकोत्सवस्य निमित्तं वार्षिकोत्सवस्य कारणं सर्वविधसन्नाहाः अपि कृताः. सन्नाहाः इत्युक्ते प्रिपरेशन्स् प्रिपरेशन्स् अपि कृताः. सो अत्र कृताः इस् क्त प्रत्यय खलु क्त प्रत्यय. So this is a ta pratyaya. Vayam tavatu pratyayam janimaha. Tavatu krita vantaha. Sannahaha krita vantaha. Iti vayam vaktum shaknumaha. Parantu atra vantaha iti vayam tyajamaha chet krita eva avashishtaha bhavati. So तत् एव क्त प्रत्यय. कृताः किमर्थं कृताः सन्नाहाः इति अस्ति अतः कृताः. ननु विजय भवान् वदतु कः कः किं किं कार्यं करोति इति. कः कः किं किं
भगिनि व्हाट डिड यू से श्वस्तनस्य मीन
श्वस्तनस्य टुमारोस.
सो इट इज श्वः प्लस
अभ्यासपुस्तके वयं पठितवन्तः श्वस्तन अद्यतन ह्यस्तन.
भगिनी श्वस्तन अद्यतन वाज सपोज टु बी अव्ययम् अटाच टु श्वस्तन वार्षको.
एक्साक्टली करेक्ट. या
सो इट्स ओके दिस वे आल्सो
श्वस्तनस्य वार्षिकोत्सव. श्वस्तनस्य वार्षिकोत्सवस्य दिस् इस् फैन् अदर्वैस् इट् बि श्वस्तन वार्षिकोत्सव लैक् दट् टुगेदर् श्वस्तने दोस् थिङ्ग्स् विल् नाट् कम् अस्तु. अत्र कृताः अत्र कः कः किं किं कार्यं करोति इति वदतु. सो अत्र इति कः कः किं किं कार्यं करोति इति वदतु लैक् दट्. सो अत्र सो दिस् इस् अ वेरि कामन् यूसेज् लैक् इन् तमिळ् यार् यार् एन्न पण्ड्र लैक् दट् कः कः किं किं करोति इति. वि डोण्ट् से दिस् इन् इङ्ग्लिष् who what doing, we don't say it like that. Okay, this is a speciality of Indian languages, I think. Astu agre amba asti va
vijayah shankara visharadah sripada cha vedikalangaram kurvandi amarah ganapatih नन्दनः च आसन आसनव्यवस्थां पश्यन्ति. आसनव्यवस्थां पश्यन्ति.
अस्तु धन्यवादः. अत्र शङ्करः विशारदः श्रीपादः च वेदिका अलङ्कारं कुर्वन्ति. सो अत्र वेदिकालङ्कारम् एकमेव पदमस्ति. सो समासपदं खलु. सो वयं पृथक् 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 लिखामः चेत् कथं भवति. वेदिका इति स्त्रीलिङ्गपदं
वेदिकायाः अलङ्कारः
वेदिकायाः अलङ्कारम् वेदिकायाः अलङ्कारं कुर्वन्ति. अमरः गणपतिः नन्दनः च आसनव्यवस्थां पश्यन्ति. अत्र अपि समस्तपदम्
आसनव्यवस्था
आसनव्यवस्थाम् इति समस्तपदं वयं पृथक् पृथक् लिखामः चेत् आसनस्य आसनम् आसनस्य अत्र वेदिका इति स्त्रीलिङ्गपदम् अतः वेदिकायाः अत्र आसनम् आसनस्य व्यवस्थां पश्यन्ति. अस्तु, धन्यवादः. केतकि भगिनि.
आं भगिनि,
अहं म्यूट् करोमि. ओके, एकवारं चेट् पश्यामि किं किं. गोपिका भगिनी, सविता भगिनी, ओ मेनि पीपल् आर् हेविङ्ग् प्राब्लम्स्. अस्तु 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 भगिनि, केतकि भगिनि.
आचार्यः मण्डपा अलङ्कारं के कुर्वन्ति?
अग्रिममपि पठतु.
विजयः, रमाकान्तः तत् सहकारिणः च कुर्वन्ति.
अस्तु, मण्डपालङ्कारं, सो मण्डपः मण्डपस्य अलङ्कारं के कुर्वन्ति? रमाकान्तः तत् सहकारिणः च कुर्वन्ति. पूर्वं सः उक्तवान्, कुत्र न उक्तवान्?
के के व्यवस्था करन्ति कुर्वन्ति
कुर्वन्ति अत्र रमाकान्तः इति नाम नास्ति. अस्तु, मण्डपालङ्कारं के कुर्वन्ति? रमाकान्तः तत् सहकारिणः. सो अत्र तत् सहकारिणः इति अस्ति, अत्र कारिणः कारिन् कारिन् इति नकारान्तपदं कारिन् कारिन् इति नकारान्तपदं नकारान्तपदं. सो अत्र कारी कारी इति भवति, लैक् योगी योगी योगिनौ योगिनः. सो कारी कारिणौ कारिणः कारिणः इति बहुवचनं. कार् दिस् इस् एकवचनं, लैक् कारी स्त्रीलिङ्गं कारिणी इति भवति. सो सः कारिणः बहुवचनरूपं. सो अत्र तत् सहकारिणः इति समस्तपदम् अस्ति. स्प्लिट् कृत्वा कुर्मः चेत् कथं भवति? रमाकान्तः
रमाकान्तः तत् सः
सहकारिणः च
तस्य सहकारिणः
तस्य सहकारिणः च कुर्वन्ति, मिलित्वा मिलित्वा कुर्वन्ति. दीपा, ओके अस्तु, अग्रे का वदति? सागरी भगिनी. निश्चयेन.
वेदिका इस् स्टेज्. What is the difference between Vedika and the Mandapa? Mandapa also is stage only, right?
Yeah, see, on the stage they may put a small mandapam, no? That one.
Okay. Either Vedika and Mandapa are same, that's what my understanding was. Okay.
Yeah, no, I mean like, even in a marriage, no, there is a big stage and then there is a mandapam inside the, on the stage, there is a small mandapam where everything takes place. अस्तु, अग्रे सन्ध्या भगिनि, न न सागरि भगिनि, क्षम्यताम्.
आं भगिनि, आचार्यः दीपालङ्कारं के कुर्वन्ति? अग्रिम पठामि वा?
आमाम् आम् पठतु पठतु.
विजयः, रमाकान्तादयः एव दीपालङ्कारम् अपि कुर्वन्ति.
अस्तु, दीपालङ्कारं कुर्वन्ति. वयं पृथक् लिखामः चेत् कथं भवति?
दीपस्य अलङ्कारम्.
उत्तमं, दीपस्य अलङ्कारं के कुर्वन्ति? रमाकान्तादयः. सो रमाकान्तः आदयः, आदयः, आदि मीन्स् बिगिनिङ्ग्. Beginning with Ramakantadayaha, like all these people, they like that. Ramakantadayaha eva, only. ते एव कुर्वन्ति इत्युक्ते अन्य कोऽपि न करोति, ते एव कुर्वन्ति दीपालङ्कारम् अपि कुर्वन्ति. किमर्थम् अपि? ते मण्डपालङ्कारं कुर्वन्ति, दीपालङ्कारम् अपि कुर्वन्ति. के कुर्वन्ति? रमाकान्त आदयः, रमाकान्तादयः मण्डपालङ्कारं कुर्वन्ति, ते एव दीपालङ्कारमपि कुर्वन्ति. सो अत्र अवगच्छन्ति खलु? एवं
भगिनि.
अस्तु, उत्तमम्. अग्रे सन्ध्या भगिनि.
आचार्यः, मुख्य अतिथिं कः आनयति? विजयः. मुकुन्दः मुख्यातिथिम् आनयति, सः एव मुख्यातिथेः प्रेषणव्यवस्थामपि करोति.
उत्तमम्. मुख्यातिथिं, मुख्यातिथिः इति पदं, तिम् इति भवति द्वितीया विभक्ति. मुख्यातिथिं कः आनयति? मुकुन्दः मुख्यातिथिम् आनयति. सो अत्र पश्यतु, अनुस्वारः अत्र अस्ति, अत्र मकारः अस्ति. किमर्थं? स्वरः अस्ति, अत्र व्यञ्जनम् अस्ति. मुख्यातिथिम् आनयति सः एव इत्युक्ते अन्य कोऽपि न, सः एव मुख्यातिथेः षष्टिविभक्ति. मुख्यातिथिः अतिथेः, मुख्यातिथेः प्रेषणव्यवस्थां. सो अत्र आसनव्यवस्थाम् अत्र प्रेषणव्यवस्थां, प्रेषणव्यवस्थाम् अपि करोति. किमर्थम् एव अत्र, अन्य कोऽपि न? किमर्थम् अपि अत्र? आनयति, आनयति प्रेषयति अपि. प्रथमम् आनयति, अनन्तरं प्रेषयति.
प्रेषयति इत्युक्ते किं भगिनि?
टु सेण्ड्. ओके, अस्तु. अग्रे सविता भगिनि.
आं भगिनि. आचार्यः, अध्यक्षं कः आनयति? विजयः. अध्यक्षः स्वयम् एव आगमिष्यति.
स्वयमेव अध्यक्षम् अत्र द्वितीया विभक्ति. अध्यक्षं कः आनयति? अध्यक्षः स्वयमेव आगमिष्यति. अन्य कोऽपि न, स्वयमेव, स्वयमेव आगमिष्यति. अर्थं he himself, yeah, he'll do it himself eva iti arte. Astu, Srinivas mahodaya.
Om bhagini. Tasya patni api karyakrame upasthita bhavati nanu atah तस्याः निमित्तम् अपि वेदिकायाम् आसन्तः कल्पनीयः.
उत्तमम्. सो अत्र तस्य पत्नी इत्युक्ते कस्य पत्नी?
ओ, अध्यक्षस्य
पत्नी. उत्तमम्. अध्यक्षस्य पत्नी अपि. सो अत्र अपि अस्ति, किमर्थम् इत्युक्ते अध्यक्षः अस्ति. अध्यक्षः आगच्छति, पत्नी अपि कार्यक्रमे उपस्थिता. उपस्थिता इत्युक्ते प्रेसेण्ट् आर् अटेण्ड् भवति, भवति ननु. अतः तस्याः निमित्तं, तस्याः निमित्तम् इस् ईक्वल् टु
चतुर्थी.
चतुर्थी. सो वाट् इस् द रूपं फार् फार् हर्? तस्यै अपि. सो वेन् यु से तस्यै, वि डोण्ट् हाव् टु पुट् निमित्तं. वि जस्ट् से तस्यै. तस्यै अपि वेदिकायाम्
आसन्तः कल्पनीयः.
कल्पनीयः. सो कल्पनीयः मीन्स् अरेञ्ज् करणीयम् इति. अरे आर्गनैज् करणीयं, व्यवस्थाम् आसन्दं व्यवस्थां करणीयम् इति. आसन्दव्यवस्था
भगिनी.
पुनरेकवारं निमित्तं
सो निमित्तं वि केन् आल्सो से कृते
समान अर्थमेव
आमाम्
तो तस्याः कृते
तस्याः कृते
इति प्रयोगं कर्तुं शक्यते खलु
निश्चयेन प्रयोगः कर्तुं शक्यते प्रयोगः
कृते अथवा तस्यै अपि
वेदिकायाम् आसन्दं स्थापयतु इति
अस्तु भगिनि
अस्तु
प्रथमवाक्यं पुनरपि वदतु श्वस्तनस्य वार्षिकोत्सवस्य कृते सर्व एक्सेट्रा आदि अदर्वैस् वाट् विल् द चतुर्थी बी देर्
सो
नाट् यूसिङ्ग् कृते आर् निमित्तं
सो इट् विल् बि वार्षिकोत्सवार्थं वार्षिकोत्सवाय
वार्षिकोत्सवाय अस्तु बीङ्ग् पुल्लिङ्ग् इट् विल् बि वार्षिक उत्सवम् उत्सव नो नपुंसकलिङ्गं रैट्
नपुंसकलिङ्ग
इट् विल् फालो द पुल्लिङ्ग टेबल् अण्ड् विल् बि वार्षिकोत्सवाय
वार्षिकोत्सवाय
अस्तु भगिनि अवगतं धन्यवादः
अस्तु भगिनि
भगिनि जस्ट् कण्टिन्यूङ्ग् आन् दिस् कृते निमित्तं see, for my understanding, the way I have noted down is, Krite means to, Nimittam means for.
No.
Both are positive only.
The Krite means also for the benefit of. So you write it like this. Krite Nimittam Karanam, for the benefit of.
So they are, all of them are easily interchangeable. There is no specific meaning it means.
We generally use krite. This is the standard.
Okay. Tasya krite means give it to him. That's what I understood. Okay.
Bhagini. As Sagri Bhagini was saying, Shvastana Varshikotsavaya. Then in that case, I cannot say Shvastanasya Shvastanaya. It should be combined, right?
Combined. Shvastana Varshikotsavaya.
When Shvastana I do Varshikotsavaya. It, okay.
I mean, yeah. It is better if it is come. So we can say Shvastanaya Varshikotsavaya. Why not, Bhagini? We can say that too.
So then Shvastana is not an avyayam. It takes the vibhakti or it becomes a visheshana visheshyam.
Yeah, it takes the visheshana visheshyam, but then when you combine it, it is like we cannot, it won't stand by itself. Because it is a shashti, it is okay. Because shashti iti asti che anya padam avashyakam.
Yeah.
So, it will not stand by itself. For example, Shvastana Varshikotsavaha Asti. No, it doesn't work that way.
Okay.
Shvastana Varshikotsavaya. Yeah, that will be better. Anya Prashna Hasiva? अस्तु सो अत्र कः उमा भगिनि
रामः कृष्णः गोविन्दः च गच्छन्ति
अग्रिममपि पठतु.
रामं कृष्णं गोविन्दं च भवान् आह्वयतु.
सो अत्र प्रथमाविभक्तिरूपम् अस्ति. अत्र रामः कृष्णः गोविन्दः च गच्छन्ति बहुवचनरूपम् अस्ति. अत्र रामं कृष्णं गोविन्दं च भवान् आह्वयतु. भवान् इति एकवचनम्, अतः आह्वयतु इति अस्ति. सो अत्र किं पुस्तकं वदति इत्युक्ते, प्रथमाविभक्ति रूपे अपि च भवति, द्वितीयाविभक्तिरूपम् अस्ति चेत् अपि च भवति, तदेव सूचयति अत्र. परमेश्वर महोदय नास्ति इति मन्ये, अस्ति वा महोदय? अस्तु. गोपिका भगिनी? सा अपि नास्ति इति मन्ये. अस्तु. ज्योति भगिनी?
आं भगिनि. बालकाः लेखन्या अङ्कन्या च लिखन्ति.
लिखन्ति. अत्र विभक्ति तृतीया विभक्ति. अत्र बालकाः बहुवचनम्, अतः अत्र बहुवचनम्. अत्र भवान् एकवचनम्, अतः अत्र एकवचनम्. अस्तु, अग्रिममपि पठतु भगिनि.
आं भगिनि. अग्रजाय अनुजाय जनकाय च भवती पानीयं ददातु.
सो भवती ददातु एकवचनम्. अत्र चतुर्थी विभक्तिरूपम् अस्ति. अग्रजाय अनुजाय जनकाय सर्वत्र उपयोगं कर्तुं शक्नुमः इति एव अस्ति अत्र. मालति भगिनि?
कार्यक्रमार्थं नगरात् ग्रामात् च जनाः आगताः.
जनाः आगताः. सो वी केन् से आगतवन्तः अपि.
आगताः आगतवन्तः.
सो
कार्यक्रमाय केन् यू से लैक् दट्?
कार्यक्रमाय.
क्रमाय. ओ नाट् क्रमाय. ओके.
नो नो, क्रमाय.
कार्यक्रमाय नगरात् ग्रामात् च जनाः आगतवन्तः.
तः इफ् यु यूस् द तवतु प्रत्यय, दिस् यु यूसिङ्ग् च प्रत्यय. सो अत्र बहुवचनम् अस्ति. अत्र अपि बहुवचनं. सो अत्र
एकवचनं
आगतः अथवा आगतवान्.
प्रत्यय एकवचनम्
आगतः.
अस्तु भगिनि, धन्यवादः.
आगत स्त्रीलिङ्ग् अस्ति चेत् आगता इति भवति. सो अत्र श्वस्तन. सो अत्रापि समानमेव खलु, कार्यक्रमाय श्वस्तनकार्यक्रमाय. श्वस्तनकार्यक्रमाय
भगिनि, श्रीलिङ्गं बहुवचनं कुत्र भवति?
समानमेव, आगताः जनाः. आगताः
जनाः.
महिलाः.
धन्यवादः भगिनि.
सो अत्र श्वस्तनाय अपि भवति, श्वस्तनाय कार्यक्रमाय. ओके, श्वस्तनाय कार्यक्रमाय नगरात् ग्रामात् च जनाः आगताः. अस्तु. अग्रिममपि पठति वा मालति भगिनि?
हरीशस्य वीरेन्द्रस्य अमरस्य च गृहम् एतस्मिन् मार्गे अस्ति.
एतस्मिन् मार्गे अस्ति. सो अत्र अहं चिन्तयामि, ते सर्वे मिलित्वा एकमेव गृहे, एकस्मिन्नेव गृहे अस्ति इति. एकस्मिन्नेव गृहे वसन्ति इति. अतः गृहं
मार्गे न भगिनि,
मार्गे
मार्गे रोड् ऐ मीन् द वे
इन् द स्ट्रीट् या. or they may be living in a bhavanam, big bhavanam with many stories like this, so they are all living in one building. Harishasya Virendrasya Amarasya cha griham etasmin marge asti. So atra shashti vibhakti roopam ante asti ante asti Sharada Bhagini agre patato grihe.
आं भगिनि गृहे मार्गे विद्यालये च भवन्तः संस्कृतेन सम्भाषणं कुर्वन्तु.
भवन्तः कुर्वन्तु कुत्र? गृहे मार्गे विद्यालये. सो अत्र पायिण्ट् किम् इत्युक्ते सो वि केन् यूस् इट् इन् एनी विभक्ति. या च विभक्ति भवतु तत्रापि वयं च इति पदम् उपयोगं कर्तुं शक्नुमः एव. चकारस्य संस्कृते वयं सर्वाणि अक्षराणि कारकार इति वदामः. प्रश्नः वा?
नो भगिनि, मे ऐ टेक् द लिबर्टि आफ् मेकिङ्ग् अ स्माल् आब्सर्वेशन्.
निश्चयेन.
इन् आल् दीस् सेवेन् एक्साम्पल्स् दे यूस् डिफ्रेण्ट् विभक्तीस् एक्सेप्टिङ्ग् द थर्ड् वन् डजन्ट् सीम् टु बि द तृतीया.
It is, Bhagini, no?
It is?
Yeah, Lekanya, Ankanya.
Oh, okay, okay. Okay, okay. So I was looking at Balakaha since... Okay, so Lekanya and Ankanya become the...
Yeah.
With the pen and pencil, right? Okay.
Another point, Bhagini, Atra, if you look at the Kriya Padam, it is not always Bahuvachanam. गच्छन्ति, आह्वयतु, लिखन्ति, ददातु, आगतवन्तः, लैक् देट्. सो अत्र इट् डिपेण्ड्स् आन् द कर्ता. अत्र कर्ता बहुवचनरूपे अस्ति. सो अत्र कर्ता एकवचनरूपम्, अत्र बहु, अत्र एक, लैक् देट्. अस्तु. संस्कृते वयं धन्यवादः भगिनि. सो अत्र वयं सर्वत्र कारकार इति वदामः, अकार, इकार, ओङ्कार इति. सो अत्र चकारस्य. अस्तु भगिनि, आरम्भं करोतु शारदा भगिनि. एतत् पठतु. समुच्चयः इत्युक्ते कलेक्षन् इति सङ्ग्रहणम् इति.
प्रथमवाक्ये रामः, कृष्णः, गोविन्दः च इत्यत्र कर्तृपदानां समुच्चयः उक्तः अस्ति. द्वितीये वाक्ये रामं, कृष्णं, गोविन्दं च इत्यत्र कर्मपदानां समुच्चयः उक्तः अस्ति. एवमेव अग्रिमेषु अपि वाक्येषु ज्ञातव्यम्.
अस्तु. सो अत्र समुच्चयः सर्वत्र अस्ति. द्वितीये वाक्ये रामं, कृष्णम् इति अस्ति कर्मपदानां समुच्चयः. एवम् एव सर्वाणि वाक्यानि तथा एव अस्ति. सर्वेषु वाक्येषु ज्ञातव्यम् इत्युक्ते टु बि नोन्. अग्रिमेषु अपि ज्ञातव्यम् इत्युक्ते कर्मणि प्रयोगे अस्ति. अम्ब अस्ति वा? अम्ब वदतु.
चकारः अन्ते योजनीयः. खण्डभाषायाम्, आङ्ग्लभाषायां, हिन्दीभाषायां च मध्ये योजयन्ति. अतः रामः, कृष्णः, गोविन्दः च गच्छन्ति शुद्धं. रामः, कृष्णः च गोविन्दः गच्छन्ति अशुद्धम्.
सो अत्र च इति अन्ते एव आगन्तव्यं. सो आवलि इति वदामः लिस्ट्. आवलि अस्ति चेत् अन्ते, आवल्याः अन्ते एव च लेखनीयम्. अस्तु अस्तु. वदतु महोदय. स्वागतम्
थेङ्क् यु अपि रामः अपि बलं खादति अन्ये कृष्णादयः खादन्ति तदा रामः अपि खादति इत्यर्थः
सो अत्र रामः अपि फलं खादति इत्युक्ते पूर्वं कृष्णः कृष्णादयः आदयः मीन्स् स्टार्टिङ्ग् फ्रम् कृष्ण आदयः खादन्ति तदा अनन्तरं रामः अपि खादति इति अर्थः अस्तु अग्रे
रामः फलम् अपि खादति रामः अन्यानि खादति तेन सह फलमपि खादति इत्यर्थः
अत्र फलम् अपि खादति इत्युक्ते तेन सह रोटिकाम् अन्नं फलरसम् अपि खादति फलमपि खादति इति अर्थः अस्तु अग्रे एकनिमिषं महोदय एकनिमिषं बहु ध्वनिः अस्ति किमर्थम् इति पश्यामि अस्तु महोदय वदतु
रामः फलं खादति अपि रामः फलं पश्यति ददाति सहगृहन्याति सहगृहन्याति तदेव खादति अपि इत्यर्थः
सो रामः फलं खादति अपि इति अस्ति चेत् पश्यति ददाति सङ्गृह्णाति सङ्गृह्णाति इत्युक्ते कलेक्ट् करोति गेदरिङ्ग् कलेक्ट् करोति तथैव तथा एव खादति अपि सो अत्र वयं कुत्र अपि इति पदं लिखामः इति बहु मुख्य अंशः रामः इति पदस्य अनन्तरं लिखामः चेत् अन्य कोऽपि अपि एवं करोति इति अर्थः रामः फलं खादति सो अत्र कर्ता खलु सो कर्ता इति पदस्य अनन्तरं लिखामः चेत् अन्यकर्ता अपि करोति इति कर्मपदं फलं कर्मपदस्य अनन्तरं लिखामः चेत् अन्यकर्मपदमपि भवति इति अर्थः सो अत्र क्रियापदस्य अनन्तरं लिखामः चेत् अन्यक्रियामपि करोति रामः इति अर्थः चकारः वदतु महोदय एतत् अपि करोतु
चकारः यदा सप्तमी सोरि यदा सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु अपि प्रयुक्तः तदैव अपि इत्ययम् अपि प्रयुक्तं
शक्यः सो अत्र वदति एतत् वाक्यं वदति यथा वयं च इति अक्षरं पदं सर्वत्र पश्यामः प्रथमाविभक्ति द्वितीयाविभक्ति सप्तमी विभक्ति युक्तवाक्यानि युक्त मीन्स् इन् इट् इट् इस् एम्बेडेड् इन् इट् सप्तभिः युक्तेषु वाक्येषु अपि एवमेव वयम् अपि उपयोगं कर्तुं शक्नुमः इति वदति सो दे आर् सेयिङ्ग् इट् इन् पेसिव् प्रयोक्तं शक्यः इति परन्तु कर्तरिप्रयोगे वक्तुम् इच्छामः चेत् यथा वयं च इति प्रयोगं सप्तसु विभक्तिषु दृष्टवन्तः तथा एव अपि प्रयोगं कर्तुं शक्नुमः सप्तसु विभक्तिषु इति अर्थं जानन्ति खलु इदानीम् अस्तु एव पश्यामः वा समयः अस्ति वा अग्रे पश्यामः वा
भगिनी पुनरेकवारं आफ्टर् कर्ता वाट् इस् फोर् आफ्टर्
अनन्तरं
कर्ता अनन्तरं कर्म अनन्तरं क्रिया अनन्तरं पुनरेकवारं विवृणोतु भगिनि
अस्तु अस्तु सो अत्र राम सो अहम् अन्यवाक्यं वदामि सीता अपि वनं गच्छति इति अस्ति चेत् रामः गच्छति लक्ष्मणः गच्छति सीता अपि गच्छति इति अर्थ सो सीता इति कर्ता सब्जेक्ट् सो विच् मीन्स् अदर् सब्जेक्ट्स् आर् आल्सो डूयिङ्ग् द सेम् थिङ्ग् रामः गच्छति लक्ष्मणः गच्छति सीता अपि गच्छति इति अर्थे भवति सो अत्र रामः फलम् अपि खादति इति अस्ति चेत् फलम् इति कर्मपदम् सो अतः रामः अन्नं खादति रोटिकां खादति व्यञ्जनं खादति फलमपि खादति तदा फलमपि खादति इति अर्थः रामः फलं खादति अपि इत्युक्ते अन्यक्रिया अपि करोति रामः अन्यक्रिया इत्युक्ते किं फलं पश्यति फलं कर्तयति फलं ददाति अन्येभ्यः ददाति
क्षालयति
निश्चयेन क्षालयति
अवगतं भगिनि
पात्रे स्थापयति सो अत्र कर्तयति कट् करोति कर्तयति इति अर्थे अस्तु समयः अतीतः अग्रे
भगिनि सम्यक् रीत्या भवती विवृणोति
धन्यवादः भगिनि अस्तु अग्रे वयम् अग्रिमवर्गे पश्यामः समयः अतीतः अस्तु शान्तिमन्त्रम् उक्त्वा समापयामः ॐ सर्वे
भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनि
धन्यवादः सरिता भगिनि
धन्यवादः भगिनि
धन्यवादः
धन्यवादः भगिनि
धन्यवादः